ध्यायन् ध्यायम् परम् ब्रह्मस्मारम् स्मारम् गुरोर्गिरः सिद्धान्तकौमुदी व्याख्याम् कुर्मः प्रौढमनोरमाम्। एक्स्ट्रीम्ली सॉरी फॉर द डिले, विल स्टार्ट द क्लास राइट अवे। अद्य प्रौढमनोरमायाम् अच्छन्धिप्रकरणे अष्टमः पाठः, एप्रिल् मासस्य पञ्चमः दिनाङ्कः। अच्छन्दि प्रकरणे यणोमयो द्वे वाच्ये इति वार्तिकम् अधिकृत्य किञ्चिदधीतम्। शुद्धवास्यः इत्यत्र चत्वारि रूपाणि साध्यन्ते दीक्षितैः। सुधी उपास्यः इति स्थिते इकोयणचि इत्यनेन अनादेशे कृते सुध य उपास्यः, तत्र धकारस्य अनचि च इत्यनेन द्वित्वं भवति। यकारस्य यणोमयोद्वे वाच्ये मयः परस्य यणः द्वित्वं भवति इत्यनेन द्वित्वम्। उभयमपि द्वित्वं विकल्पेन भवति, अतः द्वित्वे कृते अकृते च चत्वारि रूपाणि सम्भवन्ति इति प्रदर्शितम्। तत्र प्रक्रियाकौमुदी व्याख्यायां धकारयकार उभयद्वित्वे उभयोः पुनः द्वित्वे द्वित्वं क्रियते, पुनः तयोरेव द्वित्वं क्रियते रूपविकल्पे, झरोझरितवर्णे इत्यनेन विकल्पेन लोपोऽपि भवति। अन्यतरद्वित्वे च नवरूपाणि साध्यन्ते, तत्तु लिख्यतैः निराक्रियते पुनर्द्वित्वाङ्गीकारे रूपानन्त्यम्। द्वितीयवारं क्रियते चेत् तृतीयवारमपि कर्तुं शक्यते, पुनः चतुर्थवारं पुनः पञ्चमवारम् इत्यादि क्रमेण, अतः तस्य अन्त्यमेव भवति, अनन्तानि रूपाणि सम्भवन्ति, अतः नवरूपाणि अङ्गीकर्तुम् अशक्यानि इति प्रतिपादयति। तत्र मूलं पठामः। यणोमयो द्वे वाच्ये इति पक्षे इति पक्षद्वयस्यापि भाष्ये स्थितत्वाद् इति भावः। चत्वारि रूपाणि इति यत्तु वदन्ति धकार यकार उभयद्वित्वे उभयोः पुनर्द्वित्वे लोपविकल्पे अन्यतरद्वित्वे च नवरूपाणि, तथा हि एकधं त्रिधा एकयं द्वियं त्रियं च एवं द्वियं त्रियं च क्षम्यताम् एवं द्विधं त्रिधं च त्रिधेति, अतः नवरूपाणि सिद्ध्यन्ति। देर् आर् त्री फार्म्स् वित् अ सिङ्गल् धकार, three forms with two dhakaras and three forms with three dhakaras, so together nine. That is the argument of Prakriya Kaumudi. Nacha antarange dvitve bahirangasya yanaha siddhatvam, traipadike antarange bahiranga paribhasha na pravartate iti visarjaneya sutre bhashyakayatayo vyavasthapitatvat iti. Antarange dvitve kartavye, dvitvasya nimittam tu tatraiva tasmineva pade asti, yanaha nimittam bahirbhutam, अतः यण् बहिरङ्गः द्वित्वम् अन्तरङ्गम्, असिद्धं बहिरङ्गम् अन्तरङ्गे इत्यनेन अन्तरङ्गे द्वित्वे कर्तव्ये बहिरङ्गः यण् असिद्धः इति न वक्तव्यम्। कुतः त्रैपादिके अन्तरङ्गे बहिरङ्गपरिभाषा न प्रवर्तते। असिद्धं बहिरङ्गमन्तरङ्गे इति परिभाषा यत्र अन्तरङ्गं कार्यं त्रिपाद्यां वर्तते तत्र न प्रवर्तते इति, भाष्ये कैयटे च अस्ति इति प्रक्रियाकौमुदी व्याख्यायाम् उच्यते। अत्रेदं वक्तव्यम्, पुनर्द्वित्वम् अशुद्धम्, एकस्यां व्यक्तौ एकं लक्षणं सकृदेव प्रवर्तते। वेरि वेरि इम्पोर्टेण्ट् रूल् विच् इस् अप्लैड् एव्रिवेर् इन् व्याकरण। एकस्यां व्यक्तौ एकं लक्षणं सकृदेव प्रवर्तते इति एकः परपूर्वपरयोः इति भाष्ये सिद्धान्तिरत्वात्, अन्यथा द्वित्वानाम् आनन्त्यापत्तेः, न च झरोझरी इति हलोयमाम् इति च लोपेन निर्वाहः लोपस्य वैकल्पिकत्वात्, कथमन्यथा त्रिधं त्रियं चेति भवदुक्तिः सङ्गच्छेत किञ्च एवं सति सर्वस्य द्वे इति पुनः पुनः प्रवर्तेत अत एव लिपि धातोः इति सूत्रे अभ्यासग्रहणं भाष्ये प्रत्याख्यातम् सन्नन्ताद्यङन्ताद्वाणिचि चङि द्वित्वाभावार्थं तत् इति तु कैयटादिभिः उक्तम् तस्मादिह त्यजवा पञ्चमादीनि रूपाणि स्वीकुरु वा रूपानन्त्यम् इति नवत्वोक्तिः असङ्गतैव सो दिस् इस् नाट् नैन् फार्म्स् दट् इस् इम्पासिबल् ईदर् यु टु स्टाप् एट् फोर् आर् यु टु कीप् गोयिङ्ग् आन् टिल् इन्फिनिटि सो नवत्वोक्तिः असङ्गता एव सकारद्वित्वेन अष्टौ विसर्गद्वित्वेन षोडश इति तु अन्यदेतत् So that is not concerned with the sandhi. When you do the sandhi, you end up having four forms. Yadapyuktam traipadike antarange ityadi tadapina. Tatra madhye kimuktam traipadike antarange bahiranga paribhasha na pravartate. That the bahiranga paribhasha does not act in tripadi at all. So it's a complete absence of siddha paribhasha in tripadi. So the practice has been established in the Bhashya and Kayata was what was told by Prakriya Komudi, the Vyakhyana. So he says, Yadapi uttam, praipadike antarange ityadi tadapi na, kimartham, narkutaha narpatyaha ityatra visargavaranaya vriddhehe asiddhatvasya tatraiva bhashye spashtatvat. Nirukuta nirupati ityasmat narkuta narpatya iti bhavati. Tatra naru इत्यत्र यः रेफः तस्य खरवसानयो विसर्जनीयः इत्यनेन विसर्गः भवति वा इति प्रश्नमुत्थाप्य वृद्धिः असिद्धा नृ इत्यस्य वृद्ध्या नार् इति भवति सा वृद्धिः असिद्धा अतः न भवति कथं वृद्धेः असिद्धत्वम् असिद्धं बहिरङ्गम् अन्तरङ्गे अन्तरङ्गे विसर्गे कर्तव्ये बहिरङ्गा वृद्धिः बहिर्भूतप्रत्ययनिमित्ता वृद्धिः बहिरङ्गा अन्तर्भूत ककार पकार निमित्तकः विसर्गः अन्तरङ्गः अतः अन्तरङ्गे विसर्गे कर्तव्ये वृद्धिः बहिरङ्गा इति भाष्ये एव स्पष्टमुक्तमस्ति नार्कुटः नार्पत्यः इत्यत्र विसर्गवारणाय वृद्धेः असिद्धत्वस्य तत्रैव भाष्ये स्पष्टत्वात् संयोगान्तलोपे यः प्रतिषेधः इत्यस्य बहिरङ्गत्वेन प्रत्याख्यातत्वात् पुनः वार्तिककारः भाष्यकारः उभावपि संयोगान्तलोपे यणः प्रतिषेधो वाच्यः इति वार्तिकम् नावश्यकम् झलः अपकर्षात् अथवा बहिरङ्गलक्षणाद्वा तस्य बहिरङ्गत्वात् यणः बहिरङ्गत्वात् असिद्धत्वम् साधयन्ति स्वयमपि तथैव अनूदितत्वाच्च तस्मिन् प्रसङ्गे यणः प्रतिषेधो वक्तव्यः इत्यत्र स्वयम् अर्थात् प्रक्रियाकौमुदीकारेणापि तथैव उच्यते बहिरङ्गत्वात् यण् असिद्धः इति तस्मादिह तेन किं भवति त्रैपादिके अन्तरङ्गे बहिरङ्गपरिभाषा न प्रवर्तते इति वक्तुं न शक्यते इट् इस् नाट् दट् बहिरङ्गपरिभाषा डस् नाट् एक्ट् अट् आल् इन् त्रिपादि तस्मादिह यथोद्देशपक्षः ग्राह्यः बहिरङ्गपरिभाषायाः अप्रवृत्तये सो वी हेव् टु पक्षस् यथोद्देशपक्षः कार्यकालपक्षः यथोद्देशपक्षे संज्ञापरिभाषस्य त्रिपाद्यां प्रवृत्तिः न भवति कार्यकालपक्षे भवति अतः अत्र यथोद्देशपक्षः ग्राह्यः तेन अन्तरङ्गे द्वित्वे कर्तव्ये बहिरङ्गः यण् असिद्धः इति न भवति सो वी डु नाट् अप्लै द परिभाषा हियर् सो देर् इस् नो असिद्धत्व आफ् यण् एण्ड् द्वित्वा केन् हेपन् तथा च भाष्ये मयः परस्य यणः द्वित्वे दध्यत्र इति उदाहृतम् त्रैपादिके अन्तरङ्गे बहिरङ्गपरिभाषा न प्रवर्तते इत्यस्य निराकरणं कृतं दीक्षितैः सो देर् आर् अ फ्यू फर्दर् क्वश्चन् रेस्ड् रिगार्डिङ्ग् द फार्म्स् आफ् शुद्धिपास्य दीक्षितर् मेण्टेन्स् दट् इट् इस् फोर् फार्म्स् सो देर् आर् सेवरल् आक्षेपास् टु दट् द फस्ट् वन् वास् केन् देर् बि पुनर्द्वित्वा टु लीड् नैन् फार्म्स् दिस् इस् नो सो नेक्स्ट् वन् केन् देर् बि द्वित्वा एट् आल् यस् देर् केन् बि बिकास् बहिरङ्गपरिभाषा डस् नाट् आपरेट् हियर् because we have resorted to yathodesha paksha the next objection is ikosavarne sakalyasya hrasvascha ityanena sudhi upasyah iti sthite padanta ikaha asavarne achipare prakrityasyuh hrasvascha va ityachate tena sudhi upasyah iti पुनः एकं पञ्चमं रूपं भवति वा इति आक्षेपः. अलोङ्ग् वित् दीस् फोर् देर् केन् बि वन् मोर् फार्म् बै यूसिङ्ग् इकोसवर्णे शाकल्यस्य ह्रस्वश्च. नो, न भवति. किमर्थं न भवति? न समासे इति निषेधः विद्यते. एतत् सूत्रम् इकोसवर्णे शाकल्यस्य ह्रस्वश्च इति सूत्रं समासे न प्रवर्तते. तत्रापि वार्तिककारस्य भाष्यकारस्य मतभेदः विद्यते. वार्तिककारमते नित्यसमासे इदं सूत्रं न प्रवर्तते, भाष्यकारमते तु सर्वत्र समासे न प्रवर्तते. तत्र किं ग्राह्यम् इति चेत्, यथोत्तरं मुनीनां प्रामाण्यम् इति उक्तत्वात् भाष्यकारमतस्यैव प्रामाण्यम्. अतः समासे तत्सूत्रस्य प्रवृत्तिः नास्ति. न च एवमपि इकोसवर्णे इति शाकलेन रूपान्तरमस्तु इति वाच्यम्. समासे तन्निषेधात्, न च नित्यसमासे एव तन्निषेधः इति वाच्यम्. भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात्, यथोत्तरं मुनीनां प्रामाण्यात्. सो वाट् द भाष्यकार सेस् इस् मोर् इस् अक्सेप्टेबल् देन् वाट् द वार्तिककार सेस्. पुनः एकः आक्षेपः, सम्प्रसारणाच्च इत्यत्र पूर्वरूपं भवति. सुधी उपास्यः इत्यस्ति. सुधी शब्दः कथं निष्पन्नः? ध्यै चिन्तायाम् इति धातोः सम्प्रसारणान् निष्पन्नः. सम्प्रसारणेन इकारः भवति, तस्य दीर्घः भवति, सुधी उपास्यः इति भवति. तत्र ईकारस्य सम्प्रसारणसंज्ञा अस्ति. सम्प्रसारणाच्च इत्यनेन अचिपरे पूर्वरूपं भवति, यण् सन्धि एव न भवति इति एकः आक्षेपः. This says there is no yen sandhi at all. Forget having four forms. Yen cannot happen because it is derived from samprasarana. We have purva rupa. And therefore there is no yen. So he says no. Purva rupam na bhavati. Kimattham na bhavati. Dvedha samadhanam uchyate. Ekam tu samananga grahanam iti vartikam asti. Samprasarana purvatte samananga grahanam. Yatra samprasaranatya etyanena purva rupam ishyate. तत्र सम्प्रसारणं ततः परः अज्वर्णश्च समाने अङ्गे भवेत्. When both of them are present in the same anga, then only we have सम्प्रसारणाच्च. अत्र तु सुधी इत्यत्र सम्प्रसारणं भिन्ने अङ्गे अस्ति, उपास्यः इत्यत्र उकारः भिन्ने अङ्गे अस्ति, अतः अत्र सम्प्रसारणाच्च इति पूर्वरूपं न भवति इति प्रथमं समाधानम्. इतोप्यग्रे गत्वा अत्र ईकारस्य सम्प्रसारणसंज्ञैव नास्ति. यतोहि वस्तुतः सम्प्रसारणम् इकारः, तस्य हलश्च इत्यनेन दीर्घादेशो भवति. अत्र स्थानिवद्भावः नास्ति, अल्विधिः. अल्विधित्वात् स्थानिवद्भावनिषेधात् अस्य दीर्घ इकारस्य सम्प्रसारणत्वमेव नास्ति. तथा सति सम्प्रसारणात् इत्यनेन पूर्वरूपप्रसक्तिः कुतः इति प्रश्नः. ननु इह यणेव दुर्लभः. सुधी शब्दस्य ध्यायतेः सम्प्रसारणेन निष्पन्नत्वेन सम्प्रसारणाच्च इति पूर्वरूपापत्तेः इति चेत् न. सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम् इति वार्तिकोक्तेः सम्प्रसारणस्थानिकस्य अतथात्वाच्च. अतथात्वात् नाम असम्प्रसारणत्वात्, स्थानिवद्भावनिषेधात् सम्प्रसारणत्वमेव नास्ति. अन्तिमः आक्षेपः, अस्तु तथापि न भूसुधियोः इति यण् निषेधः अस्ति. भूशब्दस्य सुधीशब्दस्य च यण् न भवति इति. अयं सुधीशब्दः कथमत्र यण् इति प्रश्नः. तत्रोच्यते, तत्रापि द्वेधा समाधानमुच्यते. एकं तु न भूसुधियोः इति सूत्रम् अङ्गाधिकारे अस्ति, अतः प्रत्यये परे एव तस्य प्रवृत्तिः. प्रत्यये परे यण् निषिध्यते. उपास्यः इति तु न प्रत्ययः, अतः यण्निषेधः नास्ति इति प्रथमम्. द्वितीयं तु अनन्तरस्य विधिर्वा भवति, प्रतिषेधो वा भवति इति न्यायः. तेन तस्मात् सूत्रात् पूर्वं यत् सूत्रमस्ति एरनेकाचो संयोगपूर्वस्य इति ओस्सुपि इति च, ताभ्यां विहितस्य यणः एव निषेधः क्रियते न भूसुधियोः इत्यनेन. इको यणचि इत्यस्य निषेधः नास्ति, अतः सुध्युपास्यः इत्यत्र यण् निर्बाधः इति सिद्धान्तः. नते एवमपि नभूसुधियोः इति यण्निषेधः शङ्क्यः आङ्गत्वेन प्रत्यये परतः एव तस्य प्रवृत्तेः अनन्तरस्येति न्यायेन एरनेकाचः इति ओस्सुपि इति च सूत्रद्वयेन प्राप्तस्यैव निषेधाच्च एवञ्च शुद्ध्युपास्यः इत्यत्र रूपचतुष्टयम् एकधम् एकयम् द्विधम् एकयम् एकधम् द्वियम् द्विधम् द्वियम् अतः चत्वारि रूपाणि समर्थितानि दीक्षितैः. एनी क्वेश्चन्? ಸಿದ್ಧಾಂತಕೌಮುದಿ ಸ್ಟಾರ್ಟಿಂಗ್ ಫ್ರಮ್ ಇಕೋ ಎಣಸಿ ಸೋ ಮೆನಿ ಸೂತ್ರಸ್ ಕವರ್ಡ್ ಸೋ ಮಚ್ ವಿತ್ ರಿಗಾರ್ಡ್ ಟು ಸುದ್ಧಿಪಾಸ್ಯ ಅಲೋನ್. ನೌ ಹಿ ಇಸ್ ಗಿವಿಂಗ್ ಡಿಫರೆಂಟ್ ಎಕ್ಸಾಂಪಲ್ಸ್ ಫಾರ್ ಇಕೋ ಎಣಸಿ ಸುದ್ಧಿಪಾಸ್ಯ ತತಃ ಮಧ್ವರಹಿ ಉಚ್ಯತೆ ತತ್ರಾಪಿ ಸಮಾನಂ ರೂಪಚತುಷ್ಟಯಂ ಭವತಿ. ತೃತೀಯ ಉದಾಹರಣಂ ಧಾತ್ರಂಶಃ ಋಕಾರಸ್ಯ ರೇಫಾದೇಶಃ ಅಚಿಪರೆ ಧಾತ್ರಂಶಃ ಇತಿ. ಅತ್ರ ರೇಫಸ್ಯ ದ್ವಿತ್ವಂ ನ. धात्रंशः तकारस्य अनतिच इति भवति, रेफस्य एणोमयोद्वे वाच्ये इत्यनेन द्वित्वं भवति वा इति प्रश्नः. लैक् वि ड्यूप्लिकेटेड् यकार इन् सुद्धिपास्यः, लैक् वि डबल्ड् वकार इन् मध्वरिः, केन् वि डबल् रेफ इन् धात्रंशः इस् अ क्वश्चन्. सो हि सेस् नो, अत्र रेफस्य द्वित्वं न. कुतो न? द्वित्वप्रकरणे रहाभ्याम् इति साक्षाच्छुतत्वेन निमित्तभावेन रेफस्य कार्यत्वबाधात्. अचोरहाभ्याम् द्वे इति सूत्रमस्ति. किमुच्यते? रेफहकाराभ्याम् अतःपराभ्याम् रेफहकाराभ्याम् परस्य यरः द्वे वा स्तः इति सूत्रम्. इफ् देर् इस् अच् फालोयिङ्ग् इट् देर् इस् ईदर् रेफ और् हकार. सो द यर् विच् फालो सच् रेफ और् हकार विल् गेट् द्वित्व आप्शनली इस् द सूत्र. Here, Repha is used as a nimitta. Right? Repha dvitvasya nimittam. Yato hi Rephat parasya yaraha dvitvam vidhiyate iti karanena. Repha dvitvasya nimittam bhavati. Paribhasha vidyate. Karya manubhavan hi karyi nimittataya nashriyate. So, कार्यी इति भवति, निमित्तं भवति. कार्यी यस्य स्थाने कार्यं क्रियते सः कार्यी. सो दट् विच् वि रिप्लेस् फार् एक्साम्पल् इन् इको एणचि इक् इस् द कार्यी. इन् अकसवर्णे लीखः अक् इस् द कार्यी. यत्र यत्र कार्यं विधीयते यस्य स्थाने कार्यं भवति सः कार्यी. निमित्तं, so that which is only a nimitta, which does not participate in the karya itself, which only exists as a condition for the karya to happen, is called nimitta. Okay, so if you take iko enachi, ik is the karyi, ach is the nimitta, because the ach is not changed during the karya, it is only present as a nimitta, whereas the ik is the one which is getting substituted. Ik is the karyi and ach is the nimitta. So karyam anubhavan hi karye nimittataya nashriyate. So the paribhasha says a karyi, that which undergoes the karya itself, cannot be treated as a nimitta. So karyi nimittam na bhavati, nimittam karyi na bhavati. So they are separate. The same thing cannot be both a nimitta and a karyi. Okay, is what the paribhasha says. Atra kim asti dvitva prakarane rahabhyam iti sakshat shrutatvena nimitta bhavena. Atra repaha nimittam iti sakshat sutre eva asti. Right. In the sutra itself, Repha is declared as a nimitta for dvitva. Ataha karyatva madha. Tannimittam swayam dvitvam na praapnoti. Repha will only exist as a nimitta for dvitva. It will never get dvitva itself. Sakshat shrutatvena nimitta bhavena Rephasya karyatva madha. Repha karyi na bhavati. Rephasya dvitvam kadachidapi nabhavati. Nowhere do you find a dvitva for Repha. Because in the dvitva prakarana itself, Repha has been declared as a nimitta for dvitva. So this is fine. Ataha dhatram shaha ityatra refasya dvittvam nabhavati. Atta kashtana prashnaha. Kari sthani samanarthe bhavativa. Well, yes, almost similar, but we don't use, we use, it need not be always an adesha or an agama. There can be some other karya also. So if it is an adesha, we say yes, the sthani and the kari is the same. Okay. But there are some cases where it might not be an adesha. It might be some other karya where we general, kari is a general term. Sthani is where sthanam and it is getting replaced or some other karya and it's sthani. Okay. But generally, since the adesha karyas are more, they are the same. Okay. So it is fine. Atra tu bhavati. Atra choraha dhatram shaha ityatra refasya dvitvam na bhavati iti siddham. Kintu atra aparaha prashna asti sudhyupasyaha ityatra katham. Sudhi upasyaha. Tatra ik kim asti ik kari. Right? Ikaha yan achi ityatratvante. Ik varnaha kari iti gyayate. Idanim upasyaha ityasti. Upasyaha ityasti ukaraha ach tasmin pare yanadeshaha kriyate. Kintu ukaraha igvarnaha api. Ukara is also an ik, right? Ukara, we are treating it as an ach and therefore it is a nimitta, but it is by itself an ik. So, ik being the kari, how can it also be the nimitta? Kimuktam kari nimittataya nashriyate iti uktam. Kathamatra iti prashnaha. Sudhyupasyaha ityatra ikaha iti kari asti tasyaiva katham nimittatvam yanaha iti prashnaha. Sudhyupasyaha ityadautu sthanitvena nimittatvam ikaha tasmad ityuttarasya ityadi nirdeshat nyapakat na badhyate. So, sthanitvena nimittatvam na badhyate. So, because it is kari, the nimittatva is not overruled. Why? Tasmadityuttarasya ityadi nirdeshat jnapakat. So Paninian utterances themselves support it. Tasmaditi uttarasya. Iti ityastra ikaha yanadeshaha krataha. Punaha ukara rupam ikameva nimitti kritya. So it has acted both as the sthani and the nimitta there. So because of that nirdesha as the jnapaka, so we do not have in yanadesha. In case of yan, ik, when it is treated as ik, it is the sthani, and by virtue of being an ach, it is treated as the nimitta also. Okay. So, atra nabhavati, kintu anyatra asti. Atra panini nirdeshati. Sudhyupasyaha ityadautu sthanitvena nimittatvam ikaha tasmadityuttarasya ityadi nirdeshat jnapakat nabadhyate iti kayyataha. Takarasitu bhavatyeva iti uktam. Dhatram shaha ityatra takarasya bhavatyeva dvittvam. Acho shamyatam. Anachicha ityanena dvittvam bhavati. Tachcha vikalpena bhavati. Ityataha atra rupadvayam. Dhatram shaha. Takarasya dvitve krute ekam rupam. Dvitve akrute aparam rupam. Dhatram shaha iti ekam. Dhatram shaha iti aparam. Lakratihi iti to ekameva. L akratihi, likarasya sthane, lakaradeshe, lakratihi. Atra purvam kopi varanaha nasti. Right? Atah parasya yaraha dvevastaha itya uktam. Purvatra achnasti itya raha anachicha itya nena na bhavati. Enomayo dvevastya itya fina pravartate. Atah dvitvam nasti. Ekameva rupam. Lakratihi itya ekameva. Sadhivam sutram. Mantra grishyamanam. Halo yamam yami lopaha. Halah parasya yamaha lopaha syadva yami. Iti siddhanta kaumudyam. Antra lopaha syadva iti. Jayo honnyatarasyam ityataha anyatarasyam ityanuvrttehe. एतच्च लण् सूत्रे भाष्ये स्पष्टम्। हलोयमामि विलोपः इत्यत्र झयोः अन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इति अनुवर्तते, अतः अयम् विकल्पेन लोपः। अलः परस्यैव लोपः स्याद् वा विकल्पेनैव लोपः। हरि अनुभवः इति उदाहरणम् दत्तम्। हरि अनुभवः इत्यस्ति यण् क्रियते, अचोरहाभ्याम् द्वे इत्यनेन द्वित्वम् क्रियते, रेफात् परस्य यकारस्य, अतः पराभ्याम् रेफहकाराभ्याम् परस्य यरः। So there is ach as akara followed by repha. So the yakara which follows it is getting dvitva. Hadyanubhavaha iti yakara dvayam bhavati. Tatra haloyamam yamilopaha ittinena vikalpena lope haryanubhavaha iti ekam rupam. So you have two forms, one with two yakaras and the other with a single yakara. Iti lopa pakshe dvitva bhava pakshe cha ekayam rupam tulyam. Iti siddhanta kaumudyam. So we do lopa by halo imam yamilopaha, we end up with a single yakara. At this stage, we don't apply dvitva. Dvitvam api vikalpena. Achorahabhyam te iti vaikalpikam sutram. Dvitvam eva vikalpaha. Ataha yadi dvitvam na bhavati, tada api ekayam eva rupam. Iti lopa pakshe, dvitva bhava pakshe cha, ekayam rupam tulyam. So it is equal. So loparambha phalam tu. So then why do a lopa at all? किमर्थं लोपः क्रियते? द्वित्वस्य अभावे एकयम् रूपम् अस्ति, द्वित्वे कृते द्वियम् रूपम् सिद्ध्यति, किमर्थं लोपः करणीयः? वैदसूत्र एट् आल् इति प्रश्नः। लोपारम्भफलं तु आदित्यो देवता अस्येत्यादित्यम् हविः इत्यादौ। हि गिव्स् अ डिफरेण्ट् एक्साम्पल् वेर् टु यकारास् आर् नाट् डिरैव्ड् फ्रम् द्वित्व। सो आदित्यो देवता अस्य आदित्य इति शब्दात् ण्य प्रत्ययः क्रियते। दित्यदित्यादित्य प्रत्युत्तरपदाण्यः। आदित्यः देवता अस्य, दट् हविश् फार् विच् आदित्य इस् द गाड्। आदित्य इत्यस्मात् ण्य प्रत्ययः, यस्य अति च इत्यनेन अकारस्य लोपे आदित्य इत्यस्ति। अत्र हलोयमां यमिलोपः, हलस्परस्य यमः, यकारस्य यकारे परे लोपे कृते आदित्य इति एकयम् रूपम् सिद्ध्यति। Sutrabhave, in the absence of haloyamam yamilopaha, we cannot have a single yakara here. Right? There would have been two yakaras. So for such cases, this is the real application of haloyamam yamilopaha. Yatra dvitvena yakara dvayam kriyate, tatra ekasya haloyamam yamilopaha iti lukyate, tatra prayojanam na, sadharanam prayojanam na. That is not the unique purpose of haloyamam yamilopaha. It operates there because the conditions are satisfied, but that is not the unique purpose, because there the single yakara or other letters can be achieved even by not doing the dvitva. But here the two yakaras are not from dvitva, so if we don't have this sutra, we cannot have a form with a single yakara. So this is the actual example for haloyamam yamilopaha. लोपारम्भ फलम् तु आदित्यो देवता अस्येत्यादित्यम् हविः इत्यादौ। यमाम् यमि इति यथासङ्ख्यविज्ञानात्, इट् इस् अ टैपो, इट् इस् यथासङ्ख्य, यथासङ्ख्यविज्ञानान् नेह। इट् इस् यमाम् यमि इत्यत्र यथासङ्ख्यम्, दट् इस् यम् इस् यवरल न्यमगणन, अगेन् यम् इस् यवरल न्यमगणन, यथासङ्ख्यमनुदेशः इत्यनेन यकारस्य यकारे परे लोपः, वकारस्य वकारे परे लोपः इति ज्ञायते। माहात्म्यम् तादात्म्यम्, अत्र माहात् इत्यत्र हल् अस्ति, हलः परस्य यमः, मकारः यम् वर्णः, यमि परे यकार इस् आल्सो ए यम् वर्ण, सो मकारस्य लोपः भवति वा इति चेत् न भवति। किमर्थम् न भवति? यथासङ्ख्यविज्ञानात्, यकारस्य यकारे परे एव लोपः, वकारस्य वकारे परे एव लोपः इति विज्ञानात्। माहात्म्यम् इति अत्र मलोपो न इत्यर्थः, सो माहात्म्यम् इत्यत्र मकारस्य लोपः न भवति इत्यर्थः। हलो यराम् यदि सवर्णे लोपः इति तु न सूत्रितम्। नौ हि सेस् देर् आर् टु सूत्रस्, ओके, देर् इस् वन् विच् सेस् हलो यमाम् यमि लोपः, which covers hayavarat ityatra yakara adarabhya lan nyamagananam, yes, all these are covered by yam. Jharodhari savarne iti agrimam sutram asti, the very next sutra. So Jabhany, Yamangananam, Jabhanya, starting from Jabhai, till Shashasra, it says Jaraha Jari Lopaha. So why not combine these two sutras and make it Yaram Yari, Yar, starting from Yar till Ra. So these Varnas, when followed by a Savarna Yar, they get deleted. Dikimartham Nochyate, you can cover in a single sutra, you can cover both, right? Hello? Yaram Yari Savarne Lopaha Iti Kuto Nakrutam. Why make up separate sutra out of Jaro Jari Savarne? So sutra dvayam militva ekam sutram kartum shakyateva iti prashnaha. Na kimartham ardhnot murdhnaha shangam arthni ityado rephat parasya lopapatte hai. So when followed by an anunasika. See here, in yam, the anunasika is kept separate and dhar, the other vargiya vyanjanas are kept separate by creating two sutras. If you combine them, so when a vargiya vyanjana ar, dh, ityasti, dhakaraha, tasya nakare pare, sahapi savarnaha. Since the anunasika is a savarna for dhakara, evam sutrite, halo yaram yari savarne lopahati sutrite, atra dhakarasya lopahasya, evam murdhanaha. Shangam, ngakarasya, char, ngam. Okay. So when ngakara is followed by gakara, or arthni, when takara is followed by nakara, so all these letters will be deleted. Rephat parasya lopapatte hai. Ataha, evam na sutrikam paninina, bhinnam bhinnam eva krutam. He has kept the two domains separately. Okay, any questions? अत्र एकः प्रश्नः why is there yamam instead of yamaha in the sutra? Hello yamo yami lopaha इति वक्तुं शक्यते. Yamaha yami यथा jaro jari इत्यस्ति तथा yamo yami lopaha इति वक्तुं शक्यते. किमर्थं yamam yami? I do not know. Is there a significance to the Bahuvachana? I am not sure. Okay, see if the Vyakhyakaras have raised this point or something. Right now, I do not know. I have not checked this point. Aham pashyami drishtva vadami. Adhivam sutramasti vanto yi pratyaye. Yakaradau pratyaye pare odau tohu avu avu etau staha. Iti sutrataha. So when followed by yakaradi pratyaya, a pratyaya beginning with yakara, the vanta, that is avu and avu, will be the adesha. So, utra prashnaha, yakaraditi. Katham yakaradi iti. Sorry, it should be yakaradi iti. Yakaradau pratyaye pare. So, katham yakaradau pratyaye pare iti ucchate iti prashnaha. Yi pratyaye iti asti. Tatra yakaradau pratyaye iti katham. Visheshanam atmantasya samnyasyat ityeta dattakasya yena vidhi iti sutrasya apavada bhutena yasmin vidhis talada valgrahane iti vartikena ayamartho labhyate. Generally, what do we have? Yena vidhis tadantasya. Visheshanam tadantasya samyasya. Tata yi pratyayityute yakarante pratyayiti vaktavyam. Yeah? So, tad apavada bhutena. So, there is an exception to that. Yasmin vidhihi. So, where a vidhi is given, yasmin, when followed by something, tadadau, algrahane, if it is an al. Okay, yi pratyayityute, yi pratyaye tasmin ityasti. Algrahane, ekasya alaha, yakara rupasya alaha grahanamasti, tadadau, tata tadantasya iti na bhavati, tadadau iti bhavati, ataha yakaradau pratyaye pare ityarthaha labhyate. Odau toho iti, katham odau toho iti uchyate, atra sthanina nirdishyate, yakaradau pratyaye pare, vantaha adeshaha bhavati iti uchyate, कस्य आदेशः इति कथं ज्ञायते, ओदौतोः इति कथं उच्यते चेत् पूर्वसूत्रे तयोरेव वान्तौपति स्थायित्वेन निर्णीतत्वात्. द प्रीवियस् सूत्र इस् एचो अयवायावः. देर् इस् सम् राङ्ग् नम्बरिङ्ग् इन् वान्तो इत् प्रत्यये. इट् शुड् एक्चुलि बि 79. 78 is echoyavayavaha and 79 is vanchoyipate. Echoyavayavaha ityatra ayu avu ayu avu iti adeshau a o i au iti sthaninaha ataha yatha sankhyam ityanena sthanyadesha nirnayaha kriyate tatra vantau prati avu ityasya okarah sthani avu ityasya aukarah sthani. अतः पूर्वसूत्रे तयोरेव नाम ओदौतोरेव वान्तौ प्रति अवावौ प्रति स्थानित्वेन निर्णीतत्वात्. सो इन् द प्रीवियस् सूत्र इट् हस् बीन् डिसैडेड् दट् ओ एण्ड् औ अस् अ स्थानी एण्ड् अव् एण्ड् आव् अस् अ आदेश. सो द सेम् आदेश इस् बीन् क्यारीड् ओवर् द वान्त आदेश. सो द स्थानी इस् आल्सो द सेम् सिन्स् नथिङ्ग् इन् कान्ट्रास्ट् हस् बीन् स्टेटेड्. इफ् द स्थानी वर् डिफरेण्ट् ही वुड् हव् स्टेटेड् इट्. He has stated nothing means the sthani remains the same, which is okara and aukara. Nanu gavyutihi ityatra halisarvesham iti lopashakalyasya iti va lopahasyat iti ashankyaha vanta iti. Kimasti vantaha ityatra vakarat goryutau ityatra chakaradva purvabhage lopo vyoho iti lopena vakaraha prashlishyate. प्रश्नः गव्यूतिः इत्यस्ति. गो यूतिः गोर्यूतौ छन्दस्युपसङ्ख्यानम् इति वार्तिकेन अत्र अवादेशः क्रियते. गव् यूतिः इति भवति. इदानीं हलि सर्वेषाम् इत्यनेन तस्य वकारस्य लोपो भवति वा इति प्रश्नः. लोपशाकल्यस्य इत्यस्ति तथैव हलि. हलिपरे सर्वेषाम् आचार्याणां मतेन यकारस्य वकारस्य लोपः भवति इति प्रश्नः. गव् युतिः इत्यत्र वकारस्य लोपः भवति वा लोपशाकल्यस्य इति वा. आल् वि हाव् लोपशाकल्यस्य अशिपरे लोपः. सिन्स् यकार इस् आल्सो एन् अश् लेटर् वि केन् अप्लै लोपशाकल्यस्य इत्यनेन विकल्पेन लोपः. हलि सर्वेषाम् इत्यनेन नित्यं लोपः. सो विल् वि हाव् इट् इति आशङ्क्याः वान्त इति. तत्र न भवति इत्युच्यते. किमर्थं न भवति? वान्तः इत्यत्र वकारात् गोर्युतौ इत्यत्र छकाराद्वा पूर्वभागे लोपो व्योः इति लोपेन वकारः प्रश्लिष्यते. इन् वान्तो यि प्रत्यये द सूत्र इट् सेल्फ् इन् वान्त दर् आर् टु वकारस् वु वान्त आर् गोर्युतौ छन्दसि इत्यस्ति. गोर्युतौ वु छन्दसि इति एकः वकारः अस्ति. श्रवणं कुतो न भवति वान्तः इत्यत्र द्वितीयस्य वकारस्य, गोर्युतौ छन्दसि इत्यत्र वकारस्य वा श्रवणं कुतो नास्ति इत्युक्ते प्रश्लेषः लोपो व्योर्वलि इत्यनेन लुप्यते. सो देर् इस् अ सेकेण्ड् अकार विच् हेस् बीन् डिलीटेड् बै लोपो व्योर्वलि विच् वास् देर् अर्लियर् बट् इस् नाट् सीन् नौ बिकास् लोपो व्योर्वलि हेस् रिमूव्ड् इट्. सो वाट् इस् द पर्पस् आफ् दट् वकार? तेन श्रूयमाण वकारान्तः आदेशः स्यात्. So the adesha given by vantoyi pratyaye or goryuto chandasi is shruyamana vakarantaha. The vakara there should be heard. Vu vantaha nama shruyamana vakaraha vantaha. So where the vakara is heard, that is not deleted by anything else. Similarly in goryuto. Ataha atra vakarasya lopaha nabhavati. Vakara will not be deleted. वकारो न लुप्यते इति यावत्. सो दट् इस् वाट् इस् गिवन् बै दिस्. द नेक्स्ट् सूत्र इस् धातोस्तन्निमित्तस्यैव कोऽर्थः यादौ प्रत्यये परे धातोः एतश्चेद्वान्तादेशः तर्हि तन्निमित्तस्यैव. एन् समडि एक्स्प्लेन् वाट् दिस् सूत्र मीन्स्? ऐ स्टडीड् इट् इन् द कौमुदी. ऐ हव् इवन् गिवन् द सूत्रार्थ. समडि गिवन् एक्साम्पल् एन् से वाट् इट् मीन्स्.
सूत्रं धातुस्तन्निमित्तस्यैव इति धातोः तन्निमित्तस्य एव इति सुपदासम्बन्धं सूत्रम् धातुप्रत्ययी पदे धातोः एषः चेत् वान्तान्निमित्तस्यैव इत्युक्ते धातोः ईश्वरस्य तत्र यादवप्रत्ययी पदे एतेन सूत्रेण पुनश्च धातोः यः नास्ति परत्र विद्यमानं प्रत्ययं स्वीकृत्येव परिणतः स्यात् सः वर्णः वर्णस्य एतत् कार्यं भवति.
किम् उदाहरणम्? चिन्ता नास्ति. रिमेम्बर्स् एन् एक्साम्पल् आफ् वाट् इस् धातोस्तन्निमित्तस्यैव. सो यत्र एज् वर्णः यादौ प्रत्यये परे एजन्तस्य आवादेशः विधीयते, अर्थात् ओकारान्तस्य ओकारान्तस्य, सः ओकारः औकारो वा तन्निमित्तः नाम तत् प्रत्ययनिमित्तः स्यात्. सो द ओकार आर् औकार शुड् हव् बीन् डिरैव्ड् यूसिङ्ग् दट् प्रत्यय अस् द निमित्त, तत्रैव वान्तादेशः भवति इत्युच्यते. किमुदाहरणं, किं प्रत्युदाहरणं कोऽपि स्मरति वा? सो लव्यम् अवश्यलाव्यम् इति उदाहरणं. लू धातोः यत् प्रत्ययः लू य इति स्थिते प्रत्ययनिमित्तत्वेन सार्वधातुकार्धधातुकयोः इत्यनेन गुणः क्रियते. लो य तस्य तत्र ओकारः प्रत्ययनिमित्तः. It has arisen only because of the pratyaya. Ataha tannimittasyaiva avadeshah bhavati lavyam iti bhavati. Evameva avashya lavyam ityatra avashya lu iti sthite niyat pratyaya nicham nimitti ikatya achoyaniti ityanena vriddhihi bhavati. Avashya lavya ityasti tatra api aukaraha tannimittaha nama pratyaya nimittaha ataha tasmin pratyaya pare avadeshah bhavati avashya lavyam iti bhavati. Kutra na bhavati. प्रत्युदाहरणं किम् इति चेत् दत्तं योगेशमहोदयेन अव्यत. वे सन्तसन्ताने धातुः, तस्य सम्प्रसारणं भवति. ऊय ते इति भवति कर्मणि, तस्यैव लङ्लकारे किं भवति? ऊय इति स्थिते आडागमः, आडजादीनाम् इत्यनेन आट् इति आगमः भवति. आ ऊय त इति प्रत्ययः, आ उ इत्यनयोः आटः आटश्च इत्यनेन वृद्धिः, तत्र औ यत इति भवति. सो द औकार हियर् इस् डिरैव्ड् फ्रम् द सन्धि बिट्वीन् द आ एण्ड् उ. ओके, देर् इस् अ वृद्धि बिट्वीन् आ एण्ड् उ, फ्रम् दट् द औ इस् डिरैव्ड्. इट् इस् नाट् डिपेण्डेण्ट् आन् द प्रत्यय. ओके, द आट् is okay, the art is also not dependent on pratyaya, it is because of the lang lakara. Okay, so now when followed by ya, the ya there is a pratyaya, yak pratyaya, so there is no avadesha because the aukara is not tannimitta. Tannimitta tva bhavat avadesha na bhavati avyata ityatra. So that is kaumudi. So what does the manorama say? So lavyamiti, लव्यम् इति उदाहरणं दत्तं दीक्षितैः. लुनातेः अचोयत् लून्य धातोः अचोयत् इत्यनेन यत् प्रत्ययः सार्वधातुक अर्धधातुकयोः इति गुणः. सो लो य लव्य. अवश्यलाव्यम् इति उदाहरणम् ओरावश्यके इति ण्यत्. सो उ लपश्यलु इत्यस्मात् आवश्यके अर्थे गम्यमाने ण्यत् प्रत्ययः ण्यतं निमित्तीकृत्य वृद्धिः अवश्यलौ अचोयनिति इत्यनेन वृद्धौ अवश्यलौ य इति स्थिते अवादेशे अवश्य लाभ्यम्। अग्रिमं सूत्रं क्षय्य जय्यौ शक्यार्थे। निपातनम्, सो ही डायरेक्टली गिव्स द फॉर्म विद द अयादेश डन। ओके, क्षय्य एंड जय्य। शक्यार्थे, क्षेतुम शक्यम, क्षय्यम, दैट विच कैन बी डिक्रीज्ड इज क्षय्य। जेतुम शक्यम, दैट विच कैन बी कॉन्कर्ड इज जय्य। शक्यार्थे किम, तो कौमुद्यमेव अस्ति। व्हाट इज मीन बाय शक्यार्थे? क्षेतुम जेतुम योग्यम क्षेयम पापम जेयम मनः। व्हेन यू से क्षेयम पापम, क्षेतुम योग्यम, दैट विच डिजर्व्स टू बी रिड्यूस्ड इज पाप। सो कैन इट बी रिड्यूस्ड, इज इट शक्य, वी डोंट नो, इट डज नॉट से। द इंटेंशन विवक्षा देयर इज जस्ट टू से पाप शुड बी रिड्यूस्ड। जेयम मनः, द माइंड शुड बी कॉन्कर्ड। Can it be conquered? We don't know. So, is manaha jayam iti satyam? Jayam va? Katham jayam? So, it can be, but the vivaksha there is not that. Okay? So, the vivaksha there is yogyam, jetum yogyam, athava arham ityarthe, cheyam papam. Evam jetum arham ityarthe, jayam manaha. Okay? Cheyam iti shakilincha iti chat krityaha. So, in kshaya, सो शकी लिंग इत्युच्यते तेन शकी शक्यार्थे सकारात् कृत्याः यत् इति कृत्य प्रत्ययः। सो वी हैव कृत्य देयर, वी हैव क्षी य, देयर इज गुण, इट बिकम्स क्षेय। सो शक्यार्थे अयादेशः निपात्यते, क्षय्य इति रूपं भवति। क्षेय इत्यतो अर्हे कृत्य प्रत्यश्च अर्हार्थे, सो दट विच डिजर्व्स टू बी इत्यर्थे कृत्य प्रत्ययः यत् प्रत्ययः। So the two pratyayas are convey different senses. The same yat pratyaya, but it conveys different senses. That is indicated by the nipatana. Okay, so lopashakalyasya iti agrimam sutram. Avarna purvayohu, padantayohu, yavayohu, va lopaha ashipare. So padantayohu, yavayohu. Yakara or vakara in padanta, avarna purvayohu, when preceded by an akara, will be optionally deleted when followed by ash. Question of prashna asti, shaknotehe arhatehe bhedaha asteva, nishtena asti. Shaknoti is that which can be conquered, whereas arha is that which should be, that which deserves to be conquered. Can it be conquered? We do not know. Jetum arham manaha, jetum shakyate va, sarvena na jayam. The mind cannot be conquered by everybody, but it deserves to be conquered by everybody. Sarvesham manaha jayam, natu jayam, sarvena shaknuvanti. So there is differently a very clear difference between shaknoti and arhati. Arhati just indicates that it deserves to be. So it does not say whether it can or not. Solopashakalyasya avarna purvayohu padantayohu yavayohu valopaha. So yam pramukhahamshaha. पूर्वत्रा सिद्धम इति लोपशास्त्रस्य सिद्धत्वात् न स्वरसंधिः। सो ऑलवेज व्हेन वी अप्लाई लोपशाकल्यस्य, सिंस इट इज इन अ त्रिपादी 8319 त्रिपाद्यां वर्तते इत्यतः लोपे कृते स्वरसंधिः न भवति। द स्वरसंधि सूत्रास आर ऑल इन द सपाद सप्ताध्यायी, षष्ठाध्याये वर्तन्ते, अतः असिद्धत्वात् न भवति। हर एहि, हरयेहि अस्ति, हरे एहि इति रूपं, तत्र ऐचोयवायामः इत्यनेन अयादेशः क्रियते। हरय एहि इत्यस्ति, तत्र यवयोः वा लोपः। हरय अवर्णपूर्वयोः यवयोः यकारस्य अशिपरे अग्रे एकारः अश्वर्णः, तस्मिन् परे लोपः इति कृत्वा लोपे कृते हर एहि इति भवति। इदानीं स्वरसन्धिर्भवति वा इति प्रश्नः। न भवति इति उत्तरं, कुतो न भवति? पूर्वत्रासिद्धम् इति असिद्धत्वात् न भवति. सो कः स्वरसन्धिः न भवति? हर एहि. वाट् इस् द सरसन्धि विच् विल् नाट् हेपन् हियर्? कः सन्धिः न भवति? विच् मीन्स् इन् द अब्सेन्स् आफ् पूर्वत्रासिद्धम् वाट् इस् द सन्धि विच् वि शुड् नेचुरलि डू? हर एहि इति स्थिते कः सन्धिः भवेत्? एचोयवायावः कथम्? एच् वर्णः नास्ति किल. हर इत्यत्र एच् वर्णः नास्ति, अकारः अस्ति. अकाराद् एकारः परः. गुणसन्धिः. सो वी आल् ऐ मीन् दट् इस् वाट् वी टेन् टु थिङ्क् दट् गुणसन्धिः भवेत्. हर एहि अकाराद् एकारे परे गुणसन्धिः इति चेत् न. अत एव उच्यते. सो दट् इस् वै हि ब्रिङ्ग्स् अप् दिस् पायिण्ट् इन् द मनोरमा. इह ओमाङ्गोश्च इति पररूपं प्राप्तम्. वस्तुतः अत्र गुणसन्धिः न प्राप्नोति. ओमाङ्गोश्च शिव एहि शिवेहि. ओमि आङि च आत् परे पररूपम् एकादेशः स्यात्. सो एहि इत्यत्र आ इति उपसर्गः, इहि इति धातुः, आ इ इति उपसर्गधात्वसन्ध्या ए इत्यस्ति. तत्र आङ् अस्ति इत्यतः आङि परे पररूपं भवति. शिव एहि इत्यत्र यथा शिवेहि, तथा हर एहि इत्यत्र पररूपं प्राप्नोति न भवति. इट् विल् नाट् हेपन् बिकास् आफ् असिद्धत्व, बट् इट् इस् पररूप विच् इस् बीङ्ग् प्रिवेण्टेड् हियर्, नाट् गुण. सो इफ् विच् वेर् हर, हर इत्येव यदि रूपं हरः, हरिः हरः, अत्र तु हरि इत्यस्य सम्बोधने हरे एहि इति विवक्षितं. हरिं प्रति इदं सम्बोधनं. यदि हरं प्रति सम्बोधनं हर एहि इत्यस्ति तर्हि पररूपं भवति हरेः इत्येव भवति. स एव भेदः. इफ् इट् इस् अकारान्त देर् विल् बि पररूप, इट् विल् बि हरेः. इफ् इट् इस् डिरैव्ड् फ्रम् हरे, यु डु नाट् हाव् द पररूप. इट् remains as hara ehi. That itself is an indicator that it is not hara. It is not hara who is being invited here, it is hari. Okay. Evameva vishno iha vishna iha vishna viha ityatra rupadvayam. Vakarasya lope vishna iha vishno iha ityeva arthaha. Okarasya avadeshe vakarasya lope vishna iha iti rupam. अग्रिमं सूत्रम् उरण् रपरः कोर्थः उरण् रपरः क्वश्चन् मुत्तुलक्ष्मी
ऐ वास् ट्रैङ्ग् टु आन्सर् दट् गुणसन्धि.
ओ ओके, सारी ऐ डिडन्ट् सी इट्. सारी टु मी. ऋ इति त्रिंशतस्संज्ञा इत्युक्तं तत्स्थाने यः अण् सः रपरस्सन्नेव प्रवर्तते. यत्र ऋकारस्य स्थाने उः नाम ऋकारस्य पितुः इति यथा, तथा ऋ इत्यस्य उः इति भवति. तत्स्थाने यः अण् ऋकारस्य स्थाने यः अण् सः रपरस्सन्नेव प्रवर्तते. सर्वदा रेफपरः भवति. सो वी हव् आल्रेडी seen a lot about this ra, ra pratyaharaha iti dikshita naam matam. Ata eva ru iti trimshatasamya iti uttam is first degree. So rukara uhu naama rukarasya lukarasya cha ra paraha ra iti pratyaharaha tena ralayohu grahanam refalakarayohu grahanam. Ata rukarasya sthan rukaraha refa paraha lukaraha लकारपरः इति सिद्धान्तः दीक्षितानां. तत्स्थाने यो अण् सः रपरस्सन्नेव प्रवर्तते. तत्र आन्तरतम्यात् कृष्णर्धिः इत्यत्र अर् तवल्कारः इत्यत्र अल्. कृष्णरुद्धिः इत्यस्ति ऋकारस्य स्थाने आदेशः. अर् ऋकारः मूर्धस्थानिकः. आन्तरतम्यात् इति सो कृष्णर्धिः इत्यत्र अर् तव लुकारः इत्यत्र अल् इति. कथम् आन्तरतम्यम् आन्तरतम्यादिति रेफशिरस्तस्य अर इत्यस्य रेफद्वारा ऋकारेण स्थानसाम्यात् अर इत्यत्र रेफस्य मूर्धा स्थानम् एवं ऋकारस्य अपि मूर्धा स्थानम् अतः अन्तरतम्यम् तव लुकारः इत्यत्र लकारस्य दन्ताः स्थानम् लुकारस्यापि दन्ताः स्थानम् रेफशिरस्तस्य अर इत्यस्य रेफद्वारा ऋकारेण स्थानसाम्यात् इत्यर्थः अचोरहाभ्याम् इति पक्षे द्वित्वम् कृष्णर्धिः इत्यत्र कृष्णर्धिः इत्यस्ति सो रेफात् अतः परात् रेफात् परस्य दकारस्य धकारस्य अत्र धकारः विकल्पेन द्वित्वम् भवति इति पक्षे द्वित्वम् रुधेः धस्य इति भावः सो इन् एक्चुलि रुद्धि वि हाव् रुधु ध ओके सो धकारस्य द्वित्वम् सो वि हाव् कृष्ण रुधु ध ध ओके झरोझरि सवर्णे हलः परस्य झरः लोपः वा स्यात् सवर्णे झरि जस्ट् लैक् वि सा हलो यमाम्य विलोपः दिस् इस् आल्सो एन् आप्शनल् लोप लोपो वा इति सो एन् आप्शनल् लोप झयोः अन्यतरस्याम् इति सूत्रात् विकल्पानुवृत्तेः अन्यतरस्याम् इति अनुवर्तते अतः वैकल्पिकः लोपः एतच्च नाझलौ इति सूत्रे भाष्यकैयटयोः स्पष्टम् इन् बोध् भाष्यान् कैयट वि सी इट् वेरि क्लियर्ली दट् झयो झरोझरि सवर्णे इस् एन् आप्शनल् लोप प्राचस्तु विकल्पानुवृत्तेः अनुक्तेः न्यूनता प्राचः नाम प्रक्रियाकौमुद्याम् विकल्पानुवृत्तिः न उच्यते हि डस् नाट् ट्रीट् दिस् एस् विकल्प अनुवृत्ति आफ् अन्यतरस्याम् इस् नाट् टोल्ड् अतः न्यूनता देयरफोर् द सूत्रार्थ इस् डिफिशियण्ट् सूत्रार्थ शुड् कवर् एव्रिथिङ्ग् पर्टेनिङ्ग् टु द सूत्र हि डस् नाट् से दट् इट् इस् अ विकल्प देयरफोर् इट् इस् राङ्ग् यदपि व्याख्यातृभिः शरोचि इति ज्ञापकम् अभिप्रेत्य तत्संवादार्थं भाष्यमुपन्यस्तम् अनुवर्तते विभाषा शरोचि यद्वारयत्ययम् द्वित्वम् इति तन्न तदुत्तरभाष्ये एव उक्तज्ञापकस्य दूषितत्वात् सो हियर् सो इट् इस् क्लियर् दट् झरोझरि सवर्णे इस् एन् आप्शनल् लोप हौ डु वि नो दट् द लोप इस् आप्शनल् सेस् देर् इस् अ ज्ञापक देर् इस् अ वे इन् विच् पाणिनि कन्वेज् इट् हौ शरोचि इति सूत्रमस्ति अचिपरे शरः न द्वे स्तः अशर् लेटर् विल् नाट् बि डबल्ड् वेन् इट् इस् फालोड् बै नच् इस् वाट् इट् सेस् नौ इस् दिस् सूत्र नीडेड् इस् अ क्वश्चन् डु वि रिक्वैर् अ द्वित्वनिषेधः फार् दिस् वै लेट्स् अस्यूम् लोप इस् नित्य झरोझरि सवर्णे लेट्स् अस्यूम् इट् इस् नित्य यदि नित्यः झरः सवर्णे झरि लोपः तर्हि किं भवति Even without Sharochi, whenever we do Dvitva, Sharaha yatra yatra Dvitvam bhavati, tatra sarvatra Jharojhari Savarna yatkanena lopopi bhavati. It is also deleted. So finally you end up with a single Shar. So if Lopa is Nitya, even if we do Dvitva, the double letter can be deleted by Lopa and therefore we remain with a single Shar. So why create a separate Sutra Sharochi? What is the purpose? Even without Sharochi, if Lopa is Nitya, even without Sharochi, we can achieve the desired result. The desired thing is, two Sharvarna should not be heard. So, yadi Lopaha Nityaha, tarhi Sharochi iti sutram vinapi, Lopena iva Dvitvarahitam rupam siddhyati. Tatha sati, Sharochi iti sutram vyartham. So, Sharochi is vyartha. So, nothing can be allowed to go waste. Wherever something is vyartha, व्यर्थं स ज्ञापयति लोपः वैकल्पिकः सिन्स् इट् इस् व्यर्थ इट् इट् सेल्फ् इण्डिकेट्स् दट् लोप इस् नाट् नित्य लोपः वैकल्पिकः सो यदि लोपः विकल्पेन भवति तर्हि द्वित्वसहितम् एकं रूपं श्रूयेत द्वित्वरहितम् एकं रूपम् सो शर्वर्णानां विषये द्वित्वसहितं रूपं न इष्यते अतः अचिपरे शरो न द्वे स्तः इति शरोचि इति सूत्रं सार्थकम् Whenever something is going waste, it acts as a jnapaka. That is, it indicates something else. because of which it derives its sarthakya. Here, Sharochi indicates that Lopa is Vaikalpika, because of which Sharochi is sarthaka. It has some meaning, that is, it has a purpose in preventing the dvitva. So, that is, some commentators say this. Yadapi vyakhyatribhihi, Sharochi iti jnapakam apipretya, tat samvadhartham bhashyam upanyastam, anuvartate vibhasha. So, vibhasha is taken as anuvarti. Why? Sharochi yadvarayatyam dvitvam. Because of the presence of Sharochi which prevents dvitva, we know that vibhasha is taken as anuvarti. So, Dikshitar says, this jnapaka is wrong. It is true that dvitva is vikalpa, but that meaning cannot be derived using Sharochi. Tatuna. Why? Taduttara bhashya eva uktajnapakasya dushitatvat. So immediately Bhashyakara says this. He says that Sharochi iti dvitvam varayati ateva jnayate anuvartate vibhashayati. Kintu taduttara bhashya eva. Immediately following that, in the bhashya itself, uktajnapakasya dushitatvat. The jnapaka of Sharochi is rejected there. So, Sharochi cannot be a jnapaka. Why? Lopasya hi nityatve. If lopa is compulsory, achoraha abhyam iti dvitvam lopapavadaha syat. The dvitva achoraha abhyam dve is a apavada, an exception to lopa. Because everywhere, if you do dvitva and the double form is deleted by lopa, there is no point in doing the dvitva. Therefore, the dvitva would be an exception to lopa. Lopasya nityatve, achorahabhyam iti dvitvam lopapavadaha syat. Taha dvitvam krutva lopah kriyate tina. Dvitva vishaye lopaha na bhavati ityeva bhavati apavadatvena. Tadatu dvitva sahitam rupam shruyeta. Tadvara itum sharochi ityasya sarthakyam spashtameva. So, if dvitva is an exception to lopa, then we require Sharochi to make sure that there is no dvitva. Okay. So, lopasya hi nityatve, achorahabhyam iti dvitvam, lopapavadaha syat. Tathacha, Sharochi ityasya sarthakyam spashtameva. Therefore, Sharochi cannot be used as a jnapaka for vikalpanuvritti in Jharojhari Savarane. Tasmad vikalpanuvrittau jnapakantaram anusartavyam. We have to resort to a different jnapaka or Bhashyakaradi Vyakhyanameva Sharanam. We take it because the Bhashyakara tells it. The Vyakhyana of Bhashyakara saying that Vibhasha, Anuvartate Vibhasha, itself shows that we take Vibhasha. We don't need a Jnapaka there. Vyakhyanato Vishesha Pratipattihi. Any questions? Satra Krishnardhihi ityatra dvitva bhave lope sati ekadham. So we don't do dvitva. Initially only there is rudhu, dhu. There are two dhakaras. So we don't do dvitva and we do lopa. Jharojhari savarna ityanena ekasya dhakarasya lope ekadham eka eva dhakara shishyate. Asati lope. If we don't do the dvitva, don't do the lopa, since lopa is optional. Dvitva lopa yorva or we do a dvitva. Dvitvam kriyate and lopaha kriyate. Dvitvam krutva lopaha kriyate. Tathasya dvidham. Dhakara dvayam asti. So we don't do dvitva, but we don't do lopa also. So two dhakaras remain. Or we do dvitva and we apply lopa. Tathapi dvidham rupam bhavati. Sati dvitve. Lopecha asati tridham. Okay. So, if we do dvitva and there is no lopa, there is some typing error here. Sati dvitve asati lope. If we do dvitva and we do not do the lopa, then we have three dhakaras. Okay. So, krishnardhihi. The first is ekadham. Dvitva bhave lope. So, we don't do dvitva. The existing dhakara we delete by lopa. So, krishnardhihi. There are two dhakaras. One, either we don't apply the lopa, no dvitva. Or we apply dvitva and apply lopa. So in both ways we have two dhakaras. So third one we do dvitva but no lopa. We have three dhakaras. So dvitva lopa yohu iti. Asati lope dvitva lopa yorva iti uchyate. यत्तु द्वित्व विधान सामर्थ्यात् द्वावेव शिष्येते इति तन्ना. So some people argue द्वित्व विधान सामर्थ्यात् because there is द्वित्व being told, द्वावेव शिष्येते, there will always be only two, we will not come down to one. Okay, so some people argue that way. Tat na, that will not hold. Why? Lopasya vaikalpikatvena dhritvasya pakshe saritarthatvat. So since lopa is optional, the purpose of doing dhritva is seen in the form with three dhakaras. Dhritakara rupe dhritvasya prayojanam drishyate. Dhritvam charitartham, pakshe charitarthatvat. At least in one option, the purpose of doing dhritva is seen. Therefore, there is no harm in applying lopa in other cases. Ataha dhitva lopayoho. Tridham iti. So, we have three dhakaras by doing dhitva and not doing lopa. Now, he says, yadomayo dvevachye iti lakshanantarena punar dhitve. So, once we do dhitva, we cannot apply dhitva again by the same sutra. Punaha achoraha abhyam dve ityanena dhitvam nabhavati. Kintu yadomayo dvevachye iti lakshanantarena punar dhitve. Yadah parasya mayaha. Yanaiti panchami mayeti shashti iti srikritya. Repaha yandvarnaha. Tasmat parasya mayaha. Namadhakarasya. Dhitvam iti punar dhitve tu chaturdham api bodhyam. There can also be a form with four dhakaras. You cannot apply the same rule twice. But using two different rules, you can do dhitva again. So in that case, we can also have a form with four dhakaras. Chaturdham api bodhyam. Any questions? So we'll stop here. We'll see in the next class. I have not been able to upload the notes or audio of last class. I will do it this week. Okay, I'm sorry, I was busy with something else. So both the notes and recordings of both last class and this class will be uploaded in another couple of days. So yes, Muthulakshmi. I saw you. Yes, I'm sorry. I was very busy with something else. I'll send it. I'll correct it and send it.
You're not sending it.
Yeah. I have received it. Well, I think I've received three, tests from three people. I'll look at it in this week and I'll send it to you before next class. Dhyayam dhyayam param brahma smaram smaram guror giraha siddhanta kaumudi vyakhyam kurmah praudhamanoramam. So Paul says, I can take time as you also did. Thank you. But anyway, hopefully I will not take as much time as you did.